एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अद्य अष्टषष्ट्युत्तर पञ्चविंशति शततमी बुद्ध जयन्ती आराष्ट्रम् विविधानाम् कार्यक्रमाणाम् आयोजन पुरस्सरम् समायोज्यमाना वर्तते। नेपालस्य मध्यपश्चिम क्षेत्रस्थे तराई प्रदेशे अवस्थितायाम् लुम्बिन्याम् शाक्यवंशीय राज्ञः शुद्धोदनस्य राज्ञः मायावत्याश्च पुत्रस्य रूपेण वैशाख शुक्ल पूर्णिमायाम् लब्धजन्मा राजकुमारः सिद्धार्थः बोधगयास्थाने ज्ञानस्य सम्प्राप्तेः अनन्तरम् गौतम बुद्धस्य नाम्ना लोकविश्रुतः अभवत्। जन्म ज्ञान प्राप्ति महापरिनिर्वाण सदृश्य तिस्रो घटना वैशाख शुक्ल पूर्णिमायामेव अभवन् इत्यतः तिथिरियम् बुद्ध जीवनस्य अपूर्व संयोगस्य रूपेण मन्यते। एशिया क्षेत्रस्य ज्योति इति उपाधिना विख्यात भगवान् गौतम बुद्धः अशीतेः वर्षाणाम् वयसि भारतस्य कुशीनगरे महापरिनिर्वाणम् प्रापत। भगवता गौतम बुद्धेन प्रतिपादिताः धर्मोपदेशाः नेपाले भारत चीन श्रीलंका म्यान्मार थाईल्याण्ड लाओस क्याम्बोडिया भियतनाम भूटान जापान कोरिया मंगोलिया प्रभृति देशेषु विश्वस्य अन्येषु विविधेषु राष्ट्रेषु च बौद्ध धर्मस्य रूपेण विस्तारिताः सन्ति। बुद्ध जयन्त्याः उपलक्ष्य अद्य नेपालस्य विविधेषु मठ बौद्ध विहारेषु धार्मिक समारोहाः आयोज्यमानाः सन्ति। हिन्दू धर्मानुसारेण बुद्धः भगवतो विष्णोः नवमावतारस्य रूपेण समादीयते। अद्यैव प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य प्रमुखा तिथ्ये लुम्बिन्याम् बुद्ध जयन्ती लुम्बिनी दिवस समारोहश्च आयोज्यमानो वर्तते। अद्यैव किरात समुदायानाम् महत उभौली पर्व च आराष्ट्रम् समायोज्यमानमस्ति। एतदवसरे राष्ट्रपति प्रवृत्तिभिः नेतृभिः शुभकामना सन्देशाश्च प्रदत्ताः वर्तन्ते। सन्देशे राष्ट्रपतिः रामचन्द्र पौडेलः गदति विभिन्न पर्वोत्सवैः समाजे पारस्परिक सद्भावम् एकताञ्च सुदृढां विधातुं सहयोगः प्राप्यते। राष्ट्रपतिः पौडेलः पर्वोत्सवैः सामाजिकैकतया सभ्यस्य सुसंस्कृतस्य समाजस्य निर्माणाय भूमिका निर्वह्यते इति उक्तवान् अस्ति। उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन प्रदत्ते सन्देशे बौद्ध धर्मस्य विश्वभ्रातृत्वस्य भावनाम् आत्मसात्कृत्य देशस्य समृद्धये विकासाय च दृढसंकल्पेन अग्रेवर्धनार्थं बलं प्रदत्तं वर्तते। अवसरेऽस्मिन् प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रदत्ते सन्देशे मानवजातेः सर्वाङ्गीण हिताय शान्तये च बौद्ध दर्शनस्य प्रवर्तकस्य गौतम बुद्धस्य त्यागः विचाराः अभ्यासाश्च अनुकरणीयाः सन्तीति उक्तं वर्तते। प्रधानमन्त्री प्रचण्डः गौतम बुद्धेन प्रदर्शिताः अहिंसा शान्तिः मानवकल्याणस्य मार्गः उपदेशाश्च अधुनापि तथैव सान्दर्भिकाः सन्तीति चर्चयन् बुद्धस्य उपदेशान् मार्गदर्शनम् च स्वीकृत्य अग्रे वर्धितम् सदा राष्ट्रियैकतया पारस्परिक सद्भावेन च उच्चतः अधिगम्यते इति विश्वासम् व्यनक्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते बुद्धस्य उपदेशेषु पालितेषु सत्सु व्यक्तिषु समुदायेषु राष्ट्रेषु च विद्यमानं विवादं समाधातुं सद्भावं विस्तारयितुं च साहाय्यं भवति। अष्टषष्ट्युत्तर पञ्चविंशति शततम्या बुद्ध जयन्त्याः पूर्व संध्यायां ह्यः लुम्बिन्याम् आयोजितायां चित्रकला प्रदर्शन्यां प्रधानमन्त्री प्रचण्डः बुद्धस्य शाश्वताः उपदेशाः अविश्वम् उत्तरोत्तरं सान्दर्भिकाः जायमानाः सन्तीति अवोचत। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः गदति उच्च पर्वतीय क्षेत्र निवसन्तो जना जलवायोः परिवर्तनस्य सर्वाधिक संकटपूर्णावस्थायां वर्तन्ते। हिमालयः जनता जलवायु परिवर्तनं चेति विषयकम् अन्तर्राष्ट्रिय विज्ञ संवादं ह्यः काठमाण्डवे सम्बोधयन् प्रधानमन्त्री प्रचण्ड जलवायोः प्रकोपस्य कारणेन पर्वतीय जीवनशैली प्रभावितास्तीति अगदत्। प्रधानमन्त्री प्रचण्डः जलवायोः आधृते जीविकोपार्जने निर्भरेषु विभिन्न महिलावर्गेषु विपन्न महिला वर्गेषु परिवर्तनस्य प्रतिकरणस्य उपायानां विषये ज्ञानाभावस्य श्रोतसां क्षमतायाश्च न्यूनतायाः कारणेन च जलवायोः परिवर्तनेन एते समुदायाः समीचीनतयाः प्रभाविताः सन्ति इति चिन्ताम् अकरोत्। संवादे उपप्रधान परराष्ट्रमन्त्री नारायणकाजी श्रेष्ठः जलवायोः परिवर्तनस्य कारणेन हिमालयेषु अधिकः प्रभावः सृष्टोऽस्ति इति कारणात् हिमस्य द्रव्यभवनस्य प्रारभणाच्च एवंविध समस्यानां न्यूनीकरणाय संयुक्तः प्रयासः आवश्यकोऽस्ति इति अगदत्। संवादे वन वातावरण मन्त्री नवल किशोर साहसुडी हिमालयीय देशेषु जलवायोः परिवर्तनस्य कारणेन सृष्ट प्रभावः अन्यत्र क्षेत्रेभ्यः अधिको भवति त्यतः ततः रक्षितुम् आवश्यकता वर्तते इति अवोचत। एवमेव संवादे बंगलादेशस्य वन वातावरण जलवायु परिवर्तन मन्त्री सबर हुसैन चौधरी संयुक्त राष्ट्र संघीय जलवायु परिवर्तन सम्बद्ध वैज्ञानिक प्राविधिक परामर्शस्य कृते सहायक निकायस्य अध्यक्ष ह्यारी विरेऊ किर्गिस्तान देशस्य पर्वतीय विषयेषु राष्ट्रपतेः पूर्व विशेष दूतः नूरलान आइट मुजाइब नेपालस्य कृते अस्ट्रेलिया देशीयो राजदूतः फेलिसिटी भोल्क च धारणां व्यक्तवन्तः। संवादे नेपालेन सहितानां पञ्चविंशतेः राष्ट्राणां विशेषज्ञानां पर्वतीय लघु द्वीप राष्ट्राणाम् अन्तर्राष्ट्रिय समुदायस्य अन्तर्राष्ट्रिय विकास सहकारी सर्वकारीयेतर संस्थानां नैज क्षेत्रस्य नागरिक समाजस्य च आसन शतद्वयादपि अधिकानां प्रतिनिधिनां सहभागिता वर्तते। नेपाली कांग्रेसे केन्द्रीय कार्य समितेः संसदीय दलस्य च संयुक्त उपवेशे सहकारी प्रकरणस्य विषये अनुसन्धानाय संसदीय समितेः संघटनम् अभियाच्य मार्ग संघर्षस्य कार्यक्रमम् अग्रेसारयितुं विमृष्टं वर्तते। पश्चात्तन राजनैतिक घटनाक्रमस्य विषये विमर्शनाय सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टे उपवेशे। सहकारी वञ्चन प्रकरणे उपप्रधान गृहमन्त्रिणः रवि लामी छानेविदस्य विषये अनुसन्धानाय संसदीय समितेः संघटनाय सदनात् बहिस्ताच्च बलं दातुं विमृष्टमिति नेपाली कांग्रेस दलस्य सहमहामन्त्री बद्री पाण्डेय अज्ञापयत्। नेपाली कांग्रेस दलेन सहकारी वित्तापचलन प्रकरणे गृहमन्त्रिणः संलग्नतायाः विषयमनुसन्धान संसदीय समितेः संघटनम् अभियाच्य नैरन्तर्येण संसद अवरुध्यमाना वर्तते। सर्वोच्च न्यायालयेन कोशी प्रदेशस्य मुख्यमन्त्रिणः हिक्मत बहादुर कार्किणः विरूद्धे पञ्जीकारिते आदेशाभियाचन निवेदने आवश्यकम् अभिलेखम् न्यायालये प्रस्तोतुम् आदिष्टम् वर्तते। न्यायाधीशस्य प्रकाश कुमार ढुङ्गानाविदस्य बालकृष्ण ढकालस्य च संयुक्त न्यायपीठेन आगामि श्रवणे मुख्यमन्त्रिणा कार्किणा विश्वासस्य मतस्य ग्रहणस्य अवसरस्य अभिलेखम् प्रस्तोतुम् आदिष्टमस्ति। निवर्तमानेन मुख्यमन्त्रिणा केदार कार्किणा पञ्जीकारितम् आदेशाभियाचन निवेदनमाधृत्य विहिते विमर्शने आवश्यकाभिलेखस्य प्रस्तुत्यै आदिष्टम् वर्तते। इतः पूर्वम् सर्वोच्च न्यायालयस्य एकल न्यायपीठेन अन्तरिमादेशम् अस्वीकृत्य उभौ पक्षौ विमर्शनाय आहूतौ आस्ताम्। धनुषा जनपद न्यायालयेन नागरिकता सम्बद्धे अपराधे निगृहितम् कान्तिपुर संचारगृहस्य अध्यक्षम् कैलाश सिरोहिया इत्यमुम् दिनत्रयम् यावत् नियन्त्रणे संस्थाप्य अनुसन्धानम् विधातुम् आदिष्टम् वर्तते इति समाचारः।